अथ गोसावित्री स्तोत्रम्। नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीं गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तां सनातनीं। यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते, गवां निश्वसितं वेदाः षडङ्गपदक्रमाः, शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा, एतासामग्रशृङ्गेषु इन्द्रविष्णुः स्वयं स्थितौ, शिरो ब्रह्मा गुरुस्कन्धे ललाटे गोवृषध्वजः, कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ, दन्तेषु मरुतो देवा जिह्वायां च सरस्वती, कण्ठे च वरुणो देवो हृदये हव्यवाहनः, उदरे पृथिवी देवी सशैलवनकानना, ककुदिद्यौ स नक्षत्रा पृष्ठे वैवस्वतो यमः, ऊर्वोस्तु वसवो देवा वायुर्जङ्घे समाश्रितः, आदित्यस्वाश्रितो वाले साध्याः सर्वाङ्गसन्धिषु, अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम्, धृतिः पुष्टिर्महालक्ष्मीर्गोमये संस्थिता सदा, नासिकायां च श्रीदेवी ज्येष्ठा वसति मानवी, चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे, खुरमध्येषु गन्धर्वाः खुराग्रे पन्नगाश्रिताः, खुराणां पश्चिमे भागे ह्यप्सराणां गणास्मृताः, श्रोणीतटेषु पितरो रोमलाङ्गूलमाश्रिताः, ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः, सर्वा विष्णुमया गावस्तासां गोप्ता हि केशवः, हुङ्कारे चतुरो वेदा हुंशब्दे च प्रजापतिः, गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम्, प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा, कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता, गोग्रासस्य विशेषोऽस्ति हस्तसम्पूर्णमात्रतः, शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिरा, य इदं पठते नित्यं शृणुयाद्वा समाहितः, ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमाप्नुयात्, वैश्यश्च पशुमान् सस्यात् शूद्रश्च सुखमाप्नुयात्, गर्भिणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात्, सायं प्रातस्तु पठतां शान्तिस्वस्त्ययनं महत्, अहोरात्रकृतैः पापैः तत्क्षणात् परिमुच्यते, फलं तु गोसहस्रस्येत्युक्तं हि ब्रह्मणा पुरा। इति श्रीमन्महाभारते भीष्मयुधिष्ठिरसंवादे गोसावित्रीस्तोत्रम्।